अथ अष्टम स्कंध
अथ पंचदश अध्याय राजा बलि की स्वर्ग पर विजय। राजोवाच बले पद त्रयम भूमे कस्माद् हरि राजा चतर भूतेश्वर कृपणवत लब्धार्थोपि बबन्धतम। एतद् वेदितुमिच्छामि महत् कौतूहलम् हिनः यज्ञेश्वरस्य पूर्णस्य बन्धनम् चाप्यनागसः। श्री शुक उवाच पराजित श्रीरसुभिश्चः पितो हिन्द्रेण राजन् भृगुभिः स जीवितः सर्वात्मना तान् भजत् भृगुन् बलिः शिष्यो महात्मार्थ निवेदनेन। तम् ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता तृणाकम् जिगीषमाणम् विधिनाभिषिच्य महाभिषेकेण महानुभावः। ततो रथः काञ्चन पट्टनद्धो हयाश्च हर्यश्व तुरङ्गवर्णः ध्वजश्च सिंहेन विराजमानो हुतासनादास हवीर्भिरिष्टात्। धनुश्च दिव्यम् पुरटोपनद्धम् तूणावरिक्तौ कवचम् च दिव्यम् पितामहस्तस्य ददौ च मालाम् अम्लान पुष्पाम् जलजम् च शुक्रः। एवम् स विप्रार्जित योधनार्थस्तैः कल्पित स्वस्तैनोऽथ विप्रान् प्रदक्षिणीकृत कृत प्रणामः प्रह्लाद मामन्त्र नमश्चकार। अथारुह्य रथम् दिव्यम् भृगुदत्तम् महारथः सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृत सुधि हेमाङ्गदलसद्बाहु स्फुरन् मकरकुण्डलः रराजरथमारूढो धिष्ण्यस्थ इव भव्यवाट् तुल्यैश्वर्यबल श्रीभिः सजूथैर्दैत्यजुत्थपैः पिबद्भिरिव खम् दृग्भिः दहद्भिः परिधीनिव। वृतो विकर्षन् महतीम् आसुरीम् ध्वजनीम् विभु ययावीन्द्रपुरीम् स्वर्धाम् कम्पय निवरोदसी रम्यामुपवनोद्याने श्रीमद्भिर्नन्दनादिभिः कूजद्विहङ्गमिथुनैर्गायन् मत्तमधुव्रतैः प्रवालफलपुष्पोरुभारशाखामरद्रुमैः हंसक्षारश्चक्राह कारण्डौ कुलाकुलः नलिन्यो यत्र क्रीडन्ति प्रमदः सुरसेवितः। आकाशगङ्गया दिव्या वृताम् परिखभूतया प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः जुष्टाम् विभक्तप्रपथाम् विश्वकर्म विनिर्मिताम् सभाचत्वररथाढ्याम् विमानैर्नैर्बुदैर्जुताम् शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः यत्र नित्यवयोरूपा श्यामा विरजवाससः भ्राजन्ते रूपवन्नार्जो ह्यचिभिरिव वहनयः। सुरस्त्रीकेशविभ्रष्ट नौसौगन्धिकस्रजाम् यत्रामोदमुपादाय मार्गे आवाति मारुतः हेमज्जालाक्ष निर्गच्छ धूमेन गुरुगन्धिना पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियः। मुक्ता वितानैर्मणिहेमकेतुभिर्नानापताका बलभीभिरावृताम् शिखण्डिपारावतभृङ्गनादिताम् वैमानिकस्त्रीकलगीतमङ्गलाम् मृदङ्गशङ्खानकदुन्दुभिः स्वरैः शतालवीणामुरजष्टिवेणुभिः नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमाम् स्वप्रभयाम् चितप्रभाम् याम् न व्रजन्त धर्मिष्ठा खलाभूतद्रुहा सठा मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ताम् देवधानीम् सबरूथिनीपतिः बहिः समन्ततुरुधे पृतन्यया। आचार्य दत्तम् जलजम् महाश्वनम् दध्मौ प्रयुञ्जन् भयमिन्द्रजोषिताम् मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् सर्वदेवगणोपेतो गुरुमेतदुवाचः। मघवन् उद्यमो भूयान् बलेर्नः पूर्ववैरिणः अविश्वह्यमिमम् मन्ये केनासीत् तेजसोऽर्जितः नैनम् कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः पिबन्निव मुखे नेदम् लिहन्निव दिशो दश दहन्निव दिशो दृग्भिः संवर्ताग्निरुत्थितः। ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिप ओजः सहो बलम् तेजो जत एतत् समुद्यमः। गुरुरुवाच जानामि मघवन् शत्रुरुनत्तेरस्य कारणम् शिष्यायोपभृतम तेजो ब्रह्मवादिभि भवद्विधो भवान् वापि वर्जयित्वेश्वरम् हरिम् न सशक्त पुरःस्थातुम् कृतान्तस्य यथा जनः तस्मान् निलयमुत्सृज्य यूयम् सर्वे त्रिविष्टपम् जातकालम् प्रतीक्षन्तो यतः शत्रोर्विपर्ययः एष विप्रबलोदर्क सम्प्रत्युर्जिति विक्रमः तेषामेवापमानेन सानुबन्धो विनङ्क्षति एवम् सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना हित्वा त्रिविष्टपम् जग्मुर्ग्रीवाणाः कामरूपिणः देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् देवधानीमधिष्ठाय वशम् निन्ये जगत्त्रयम् तम् विश्वजैनम् शिष्यम् भृगवः शिष्यवत्सलः सतेन है मेधानाम् अनुव्रतम् याजयन् ततस्तदनुभावेन भुवनत्रय विश्रुताम् कीर्तिम् दिक्षु वितन्वान् स रेजे उडुराडिव बुभुजे च श्रियम् श्रद्धाम् द्विज देवोपलम्भिताम् कृतकृतमिवात्मानम् मन्यमानो महामनः इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे पञ्चदशोऽध्यायः।